यस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली लैंगिक हिंसां समाप्य समतामूलकस्य न्यायोचितस्य च समाजस्य निर्माणाय समृद्धेः समानतायाः न्यायस्य च मार्गे अग्रे वर्धितुम् सर्वान् अनुरोणादि। लैंगिक हिंसायाः अन्त्यस्य प्रतिबद्धता व्यक्तेः समाजस्य सर्वेषां च ऐक्यबद्धता इति समाघोषेण सह ह्यः प्रारब्धस्य लैंगिक हिंसायाः विरोधिनः षोडश दिवसीयाभियानस्य महिला बाल बालिका ज्येष्ठ नागरिक मन्त्रालयेन दृश्य विस्तरणस्य माध्यमेन आयोजितं विशेष कार्यक्रमम् उद्घाटयन् प्रधानमन्त्री ओली महिला हिंसायाः अन्ताय संविधानं विधिं च परिपाल्य सर्वैः एकीभूयानुकूल मार्गे चलितव्यम् इति विषये बलं प्रादात्। प्रधानमन्त्री ओली अवासत समृद्धो नेपालः सुखिनो नेपालिनश्चेति लक्ष्यस्य प्राप्तय देशे सुशासनं संस्थाप्य समृद्धस्य न्यायोचितस्य च समाजस्य निर्माणाय संकल्पेन सर्वकारः अग्रे वर्धमानो वर्तते। कार्यक्रमे महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री लीलानाथ श्रेष्ठः अवोचत् महिलासु बाल बालिकासु च विहितायाः हिंसायाः अन्ताय विधि निर्मीयमाणो वर्तते। महोत्तरी जनपदस्य बर्दिवास नगरपालिकायाः चतुर्दशवडा क्षेत्रवर्तिनः शुभम बस्ती स्थानस्य षड्वर्षीयायाः बालिकायाः गुलाब शाह खातुन इत्यस्याः हत्यायाः प्रहरिणः गोलिकाघातेन भूतस्य एकस्य जनस्य मृत्यो घटनायाश्च सम्बन्धे सुरक्षा निकायस्य सर्वदलीयोपवेशेन संघटितस्य वार्तादलस्य च मध्ये ह्यः चतुःसूत्रीया सहमति धृता वर्तते। चिरञ्जीवी हमालस्य संयोजकत्वे संघटितस्य एकादश सदस्यीय वार्तादलस्य प्रमुख जनपदाधिकारिण कृष्ण बहादुर कटुवाल इत्यनेन सहितस्य सुरक्षा निकायस्य प्रमुखस्य च मध्ये चतुःसूत्रीया सहमति धृता अस्ति। बालिकायाः हत्यायां संलग्नं जनम् विध्यनुसारेण अधिकतमं दण्डयितुं पीड़ित परिवाराय उचित क्षतिपूर्तेः व्यवस्थायै सर्वकारम् अनुरोद्धुम् घटनायाम् आहतम् उपचारस्य क्रमे मृतम् बुद्धिराजन् न्योपानेविदम् हुतात्मानम् उद्घोषयितुं नेपाल सर्वकारम् अभियाचितुं च सहमति धृता वर्तते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य वरिष्ठ नेता माधव कुमार नेपालः कथयति दलस्य विधानं नीतिं सिद्धान्तं च आत्मसात् कृत्य अग्रे वर्धिते सति विद्यमानाः सर्वाः समस्याः समाधास्यन्ते। नेपाल सर्वकारीय कर्मचारी संघटनस्य पर्सा शाखाया नवनिर्मितं भवनं ह्य उद्घाटयन् वरिष्ठ नेता नेपालः अगदत् महता बलिदानेन त्यागेन च निर्माय जनतायां स्थापितं नेकपादलं कस्यचित् इच्छा मात्रेण दुर्बलयितुं न शक्यते। कार्यक्रमे पूर्व प्रधानमन्त्री च वरिष्ठ नेता नेपालः कर्मचारिणां स्थानान्तरणे पदोन्नतौ च दृष्टाम् अनियमिततां समापयितुं गुणदोषयो आधारेण मूल्यांकनस्य पद्धतेः विकासः आवश्यको वर्तते इति धारणां प्राकटयत्। अर्थमन्त्री विष्णुप्रसाद पौडेलः राष्ट्रिय गौरवस्य आयोजनायां वित्तस्य अभावो न भवतीति प्रतिबद्धतां व्यनक्ति। रूपन्देही जनपदस्य सैना मैना स्थाने ह्य आयोजिते कार्यक्रमे अर्थमन्त्री पौडेलः अवोचत् व्यवस्थित नगरीकरणस्य योजनां निर्माय विकास निर्माणस्य आयोजना चालनीया भौतिक संरचनानां निर्माणं च विधातव्यम्। असो बुटवल चन्द्र उट्टातः धानखोला स्थानम् यावद मार्ग निर्माणाय सर्वकारेण आवश्यक वित्तस्य प्रबन्धः वित्तोस्तीति चर्चयन् सैना मैना चक्रपथस्य निर्माणस्य अनन्तरम् नगरम् अतिरिक्तम् समृद्धम् भविष्यतीति विश्वासम् व्यक्तवान्। अशेव मार्गमासस्य पञ्चदश दिवसे 97 स्थानीय स्तरेषु प्रतिस्तरं 15 शय्यानं चिकित्सालयस्य शिलान्यासो भविता। स्वास्थ्य जनसंख्या मन्त्रालयस्य गतदिवसीय नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डा जागेश्वर गौतमः चिकित्सालय रहितानां 49.67% पालिकानां मध्ये 97.73% पालिकासु एतन्मासस्य पञ्चदश दिवसे चिकित्सालयस्य शिलान्यासं विधातुं निर्णीतम् इति अज्ञापयत्। प्रवक्ता डाक्टर गौतमः अवशिष्टेषु स्थानीय स्तरेष्वपि प्रतिस्तरं 5 शय्यानाम् अस्थायी चिकित्सालयं सञ्चालयितुं मन्त्रालयेन प्रत्येकं स्थानीय स्तराय 10 लक्ष रूप्यकाणां मितं वित्तं प्रेषितम् अस्ति इति अवोचत। प्रवक्ता डाक्टर गौतमः सर्वेषु स्थानीय स्तरेषु चिकित्सालय निर्माणात्मिका सर्वकारस्य बहुवर्षीया योजनास्तीति हेतोः सम्प्रति विनियोजितेन वित्तेन चिकित्सालयस्य शिलान्यासं कृत्वा निर्माण कार्यम् अग्रे वर्धापयितुम् अन्वरुणत्। चिकित्सालयस्य निर्माणाय अपर्याप्तं वित्तं सर्वकारेण आगामि वर्षस्य आयव्ययकात् प्रदास्यते इति प्रवक्ता डा गौतमः ज्ञापितवान्। अत्रान्तरे नेपाले कोरोना संक्रमणात् मुक्तानां जनानां अंकमानः 92% प्राप्तो वर्तते। ह्य अतिरिक्तानां 63 जनानां मुक्तेः अनन्तरं ह्यस्तन दिवसावधि मुक्तानाम जनानाम समग्र संख्या लक्षद्वयम् सप्त सहस्राणि अष्टानवत्यधिक नवशतम् च प्राप्ता एतदनु मुक्तानाम जनानाम अंकमानः द्वानवति प्रतिशतम् अस्तीति प्रवक्ता डाक्टर गौतमः अवोचत। ह्यतिरिक्तेषु सहस्र अष्ट चत्वारिंशदधिक नवशते च जनेषु कोरोना विषाणु संक्रमणं पुष्टिभूतं वर्तते। ह्यो नवसहस्राणां दशाधिक शतद्वयस्य च निदर्शनानां रियल टाइम पीसीआर विधिना परीक्षणं विहितं सत सहस्रे चतुस्सप्तत्यधिक शते च पुरुषेषु चतुस्सप्तत्यधिक सप्त शते च महिलासु च संक्रमणं पुष्टिभूतमिति प्रवक्ता डाक्टर गौतमः अवोदयत्। गतदिने काष्ठमण्डप उपत्यकायां 85+400 पुरुषाः 85+103 महिला चेति कृत्वा 35+100 संक्रान्ताः जनाः वर्धिताः सन्ति। ह्यस्तन दिवसावधि आराष्टम 16,649+600 च कोरोना विषाणो सक्रिय संक्रान्ताः जनाः वर्तन्ते। ह्य कोरोना संक्रमणस्य कारणेन 28 जनाः मृताः। कोरोना संक्रमणेन नेपाले अद्यावधि मृतानां जनानां समग्र संख्या 1,89+103 च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। अद्य हरिबोधनी एकादशी हिन्दू धर्मावलम्बी भगवतः विष्णुः पूजाराधन पुरस्सरं व्रतोपवासादिभिः समाद्रियते। अस्मिन् वर्षे तिथे न्यूनाधिक्यस्य कारणेन ह्योऽपि एकादशी व्रतं समाचरितम्। अद्यापि उपोष्य तुलसी विवाहादीनि धार्मिकानुष्ठानानि सम्पाद्यमानानि सन्ति। पौराणिक मान्यताया अनुसारेण आषाढ शुक्लस्य एकादश्या हरिशयनितः कार्तिक शुक्ल हरिबोधनी एकादशी पर्यन्तम् मासचतुष्टयम् यावत् भगवान् विष्णुः शेषशयनम् आश्रयति। अस्मिन् अवधौ विहितम् चातुर्मास्यानुष्ठानम् सातिशयम् फलदायी भवतीति विश्वस्यते। अनुष्ठानमेतच्च अस्मिन्नेव दिने समाप्तिम् एति। पांचथ जनपदस्य फालेतुङ ग्रामपालिकाया चतुर्थ वडा क्षेत्रस्य फालुट स्थाने सशस्त्र प्रहरी बलस्य सीमा निरीक्षण केन्द्रम् संस्थापितम् वर्तते। सीमा निरीक्षण केन्द्रमेतद् उद्घाटयन् भौतिक पूर्वाधार यातायात मन्त्री बसन्त कुमार नेवांग अगदत् सर्वकारेण युगपद सदस्य सीमा सुरक्षा केन्द्राणि संस्थाप्य सीमा क्षेत्रम् सुरक्षितम् विधातुम् प्रयास हवितोऽस्ति। सर्वकारेण सर्वकारीय कर्मचारिणाम् आधिकारिक संगठनस्य निर्वाचनम् तत्कालाय स्थगितकृतम् वर्तते। प्रधानमन्त्रीनिवासे बालवाटार स्थाने ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन अस्यैव मार्ग मासस्य 27 दिवसाय निर्धारितम् निर्वाचनम् तत्कालाय स्थगितकृतम् अस्ति। उपवेशस्य पश्चात् संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च पार्वत गुरूङ कोविड 19 संक्रमणस्य कारणेन अपर निर्णयनाभावम् यावत् निर्वाचनम् स्थगितकृतम् अस्ति ज्ञापयत् इति समाचारः।